एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वोच्च न्यायालयेन सांविधानिकायोगानां द्वापञ्चाशतः पदाधिकारिणां नियुक्तेर् विरुद्धे पञ्जीकारितस्य आदेशाभियाचन न्यायिक निवेदनस्य उपरि निर्णयम् आगामिनः आषाढमासस्य अष्टादशे दिवसे विधातुं समयः निर्धारितोऽस्ति। प्रधान न्यायाधीशस्य प्रकाशमान सिंह रावत इत्यस्य, न्यायाधीशानां सपना प्रधान मल्ल इत्यस्याः, मनोज कुमार शर्मणः, डाक्टर कुमार चुडालस्य, डाक्टर नहकुल सुवेदिनश्च न्यायपीठे पदाधिकारिणां विरूद्धे आदेशाभियाचन न्यायिक निवेदनस्य श्रवणस्य निर्णयं विधातुं ह्यस्तनाय दिवसाय समयः निर्धारितः आसीत्। सर्वोच्च न्यायालयस्य सहप्रवक्ता निराजन पाण्डे सांविधानिकायोगानां पदाधिकारिणां विरुद्धे पञ्जीकारितस्य निवेदनस्य निर्णयः आषाढमासस्य अष्टादशे दिवसे भवितेति असूचयत्। सर्वकारेण सप्तसप्तत्युत्तर द्विसहस्रतम वैक्रमाब्दे अष्टसप्तत्युत्तर द्विसहस्रतमे वैक्रमाब्दे च चरणद्वये अध्यादेशस्य माध्यमेन सांविधानिकायोगे द्वापञ्चाशत् पदाधिकारिणः नियुक्ताः आसन्। अध्यादेशस्य माध्यमेन सांविधानिकायोगे पदाधिकारिणां नियुक्तिः अवैधानिकी वर्तते इति वितर्क्य पञ्जीकारितानां न्यायिक निवेदनानां विषये अधिवक्तृषु विवदनम् अस्यैव ज्येष्ठमासस्य प्रथमे दिवसे समाप्तम् आसीत्। अधिकार दुरूपयोग अनुसन्धान आयोगेन काष्ठमण्डप महानगरपालिकायाः तात्कालिक प्रमुख प्रशासकीयाधिकृतेन प्रदीप परियार इत्यनेन सहितानां सप्तानां जनानां विरूद्धे चतुर्णां कोटीनाम् एकत्रिंशतो लक्षाणां च रूप्यकाणां भ्रष्टाचारस्य अभियोगे आरोपपत्रं पञ्जीकारितं वर्तते। काष्ठमण्डप महानगरपालिकायाः सामाखुशी तटीय मार्गान्तर्गतम् वसुन्धरास्थानात् हैपिस्थानम् यावत् अवकर नलिका निर्माण कर्मणि भ्रष्टाचारो विहितोऽस्तीति आरोपे सम्प्रति सूचना प्रसारण विभागस्य महानिर्देशक पदे कार्यं कुर्वता परियारेण सहितानाम् आह्वानपत्र मूल्यांकन समितेः निर्देशकानां रवीन्द्रमान श्रेष्ठस्य, शिवराज अधिकारिणः, वसन्ताचार्यस्य, नमराज ढकालस्य च, स्थपतेः जनार्दन गिरी इत्यस्य, क्रयण सहायक निर्देशकस्य उत्तम दाहालस्य च विरुद्धे च आरोपपत्रं पञ्जीकारितमस्तीति आयोगस्य सहायक प्रवक्ता देवी प्रसाद थपलिया असूचयत। एतेषां विरुद्धे चतुर्णां लक्षाणाम् एकत्रिंशतः कोटीनां द्वासप्ततेः सहस्राणां च रूप्यकाणां हानिवित्तम् अभियाच्य विशेष न्यायालये न्यायिक निवेदनं पञ्जीकारितमस्तीति आयोगेन ज्ञापितम् वर्तते। प्रतिनिधि सभाया ह्यस्तनोपवेशोऽपि प्रतिपक्षिदलानाम् अवरोधस्य पश्चात् अद्य त्रिवादनाय निर्धार्य स्थगितकृतो वर्तते। बहुदिवसेभ्यः पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य त्यागपत्रम् अभियाच्य अनुसन्धान समितेः संघटनम् अभियाच्य च संघीय संसदः उपवेशे विपक्षिदलैः अवरोधः सृज्यमानोऽस्ति। अत्रान्तरे ह्योऽपि उपवेशस्य सुचारू सञ्चालनाय देवराज सभामुखेन देवराज घिमिरे विदेन प्रमुख राजनीतिक दलानां नेतृत्वैः विमर्शनं विहितम् आसीत्। सत्तारूढ दलानि प्रकरणस्य अधिकार दुरूपयोगानुसन्धानायोगेन अनुसन्धानं विधीयमानम् अस्तीत्यतः अनुसन्धान समिते संघटनस्य आवश्यकता नास्तीति दृढतां व्यक्तवन्ति सन्ति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ निगदति संसदः अवरोधः शीघ्रमेव अन्तो भविष्यति। संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार मन्त्री च गुरुङ गृहमन्त्रिणः त्यागपत्रस्य विषय अनुपयुक्तोऽस्तीति च चयन् संसदीयानुसन्धान समितेः संघटनस्य विषये वार्ता जायमानास्तीत्यतः प्रतिनिधि सभायाः अवरोधः शीघ्रमेव समाप्स्यतीति अगत। संचार मन्त्री गुरुङ भ्रमणाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे अधिकार दुरूपयोगानुसन्धानायोगेन कर्मचारिणां सहभागितायाः विषये अनुसन्धानं विधीयमानम् अस्तीत्यतः तत एव बहवः विषयाः स्पष्टीभविष्यन्तीति अगदत्। पत्रकार सम्मेलने संचार मन्त्री गुरूङ षड्विंश दिवसस्य मन्त्री परिषद उपवेशन एतद् विक्रम वर्षीयां नेपाल गुणस्तर प्रमाण चिन्ह सम्बद्धां तृतीय संशोधन नियमावलीं स्वीकर्तुम् निर्णीतम् अस्तीति असूचयत। मन्त्री परिषद उपवेशन उच्चस्तरे जायमानानि विभिन्नानि भ्रमणानि स्वीकृतानि च सन्ति। एवमेव उपवेशेन ललितपुरस्य महालक्ष्मी नगरपालिकायाः केन्द्रम् दाङ जनपदस्य शान्तिनगर ग्रामपालिकायाः केन्द्रम् च परिवर्तितम् अस्तीति मन्त्री गुरूङ असूचयत। राष्ट्रपति रामचन्द्र पौडेल कथयति शिक्षायाः क्रीडया सह घनिष्ठ सम्बन्धो भवति। काष्ठमण्डपस्य दशरथ रंगशालायाम् ह्य आयोजितम् पञ्चदश राष्ट्रपति रनिंग शील्ड क्रीडा प्रतियोगितायाः उद्घाटन समारोहं सम्बोधयन् राष्ट्रपति पौडेलः क्रीडकानाम् उत्पादनस्य प्रमुखस्थलं प्रारम्भिकाधारश्च ग्रामः विद्यालयश्च एव वर्तेते इति प्रत्यपादयत्। तदवसरे राष्ट्रपति पौडेलः प्रतिवर्षं क्रीडायाः प्रतिस्पर्धा गतिविधयश्च वर्धमानाः सन्त्यपि पूर्वाधारस्य अभ्यासस्य प्रशिक्षकाणां सौविध्यस्य अन्तर्राष्ट्रिय प्रशिक्षणानां च अभावः समाह्वयस्य विषयाः जायमानाः सन्तीति चर्चयन् एतदर्थं देशाभ्यन्तरे एव अधिकाधिकाः पूर्वाधार संरचनाः निर्मातव्याः प्रतियोगिताः प्रशिक्षणानि च वर्धनीयानीति बलं प्रादात्। वन वातावरण मन्त्री ऐनबहादुर साई ठकुरी निगदति सामुदायिकैः वनैः अतिविपन्नानां परिवाराणां लाभाय क्रियाशीलैर्भाव्यम्। वनभू संरक्षण विभागेन ह्य ललितपुरे आयोजिते कार्यक्रमे मन्त्री ठकुरी स्वदेशीयानां काष्ठानि विनश्यन्ति वैदेशिकानां काष्ठानाम् आयातस्य च अवस्था वर्तते इति स्थितेः अन्त्यं विधेयम् इत्यत्र बलं ददत्। वन वातावरण सम्बद्धम् अध्ययन संस्थानम् अध्ययनानुसन्धाने योजनीयम् इति प्रावोचत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः भासते देशः प्राक्तनावस्थायां न प्रत्यावर्तिष्यति। म्याग्दी जनपदस्य अन्नपूर्ण ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य ज्ञान प्रकाश नमूना माध्यमिक विद्यालयेन ह्य आयोजिते कार्यक्रमे अध्यक्षो दाहाल दीर्घकालिक संघर्षेण जनतायाः बलिदानेन च स्थापितायाः संघीय लोकतान्त्रिक गणतन्त्रात्मक शासन व्यवस्थातः देश प्राक्तनावस्थायां न प्रत्यावर्तिष्यते इति अवोचत। ह्य एव मुस्ताङ जनपदं प्राप्तः माओवादी केन्द्रस्य अध्यक्ष प्रचण्ड नेपाले जलवायु परिवर्तनस्य गभीर प्रभावस्य दर्शनं प्रारब्धम् अस्तीति चर्चयन् अन्तर्राष्ट्रिय मञ्चेषु नेपालाय क्षतिपूर्तेः प्रदानाय आत्मना नैरन्तर्येण बलं सृष्टं वर्तते इति न्यश्चिनोत्। राष्ट्रियसभाया सार्वजनिक नीति प्रत्यायोजित विधायन समित्या दोलखा सिन्धुपाल्चोक काभ्रे पलाञ्चोक रामेछाप जनपदानां महत्वपूर्णानां निकायानां सांस्कृतिक धरोहराणां च अनुगमनं विधातुं निर्णीतं वर्तते इति समाचाराः।